एष रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रवाचकः उपेन्द्र दाहालः। सर्वोच्च न्यायालयेन अल्पकालिकान्तरिमादेशाय निरन्तरता प्रदानस्य अस्वीकरणमनु नागरिकताधिनियमस्य क्रियान्वयनाय मार्ग अनावृतो वर्तते। सर्वोच्च न्यायालयस्य न्यायाधीशद्वयस्य आनन्दमोहन भट्टराई इत्यस्य कुमार रेग्मिणश्च संयुक्त न्यायपीठेन इतः पूर्वं न्यायाधीशस्य डा मनोज कुमार शर्मणः एकल न्यायपीठेन दत्तस्य अल्पकालिकान्तरिमादेशस्य निरन्तरता न भवतीति ह्य आदेश प्रदानानन्तरम् नागरिकताधिनियमस्य क्रियान्वयनाय मार्ग अनावृतोऽस्ति। अतः परं राष्ट्रपतिना रामचन्द्र पौडेलेन ज्येष्ठस्य सप्तदशे दिवसे प्रमाणीकृतो नागरिकताधिनियम क्रियान्वयनाय अग्रे प्रवर्धते। राष्ट्रपतिना पौडेलेन प्रमाणीकृतो नागरिकताधिनियम संविधानस्य मर्म भावनयो विपरीतोऽस्तीति वितर्क्य वरिष्ठाधिवक्तृद्वयेन सुरेन्द्र भण्डारिणा बालकृष्ण न्योपाने विधेन च सर्वोच्च न्यायालये आदेशाभियाचना निवेदनं पञ्जीकारितम् आसीत्। प्रधानमन्त्रिणः पुष्पकमलदाहाल प्रचण्डस्य नेकपा दलस्य महासचिवस्य नेत्रविक्रमचन्दस्य च मध्ये सामयिक विषये ह्यो विमर्शनमभवत्। बाल्वाटारवर्तिनी प्रधानमन्त्रीनिवासे सम्पन्ने मेलने अनयोर्मध्ये समाजवादी संयुति नेपालस्य घोषणोत्तरकालिकावस्थायाः राष्ट्रस्य सामयिक राजनीतेश्च विषययोः विमृष्टमिति प्रधानमन्त्रिणः सचिवालयो ज्ञापयति। समाजवादी संयुतेः प्रभावकारितायाः उपायानां माओवादीदलान्दोलनस्य उपलब्धीनां रक्षायाः दलैकतायाश्च विषयेषु द्वयोः शीर्षनेत्रोर्मध्ये गभीरेण विमृष्टमिति प्रधानमन्त्रिणः स्वकीय सचिवः गंगा दाहालः अवोचत। ऊर्जो जलस्रोत सेचन मन्त्री शक्तिबहादुर बस्नेत कथयति वर्षद्वयस्य अभ्यन्तरे नेपालस्य पूर्णरूपेण वैद्युतीकरणं विधास्यते। प्रतिनिधिसभायाः पूर्वाधार विकास समितेः ह्य असीम प्रासादे उपविष्टे उपवेशे मन्त्री बस्नेत वर्तमानार्थिक वर्षस्य अभ्यन्तरे कोशी गण्डकी बागमती लुम्बिनी मधेस प्रदेशानां सर्वेष् भूभागेष् शत प्रतिशतं विद्युतः प्रापणस्य आगामिनः आर्थिक वर्षस्य अभ्यन्तरे सुदूर पश्चिम कर्णाली प्रदेशयोः पूर्णरूपेण वैद्युतीकरणस्य च लक्ष्यं सर्वकारस्य स्थिति असूचयत। मन्त्री बस्नेत अप्राप्त सेचन क्षेत्राणि भूभागाञ्च प्राथमिकतायां संस्थाप्य वित्तं विनियुक्तम् अस्तीति अज्ञापयत। उपवेशे सांसदाः नदीनां संरक्षणाय तटबन्धन निर्माणाय च अप्राप्त सेचन सौविध्यानि स्थलानि प्राथमिकतायां संस्थापयितुं विद्युतः प्रापणाय विस्ताराय व्ययीकरणाय च वस्तुगत कार्ययोजनाम् आनेतुं वैकल्पिकोर्जसः प्रवर्धनस्य उपायान् अवलम्बितुञ्च बलं प्रादुः। राष्ट्रिय स्वतन्त्र दलस्य सभापतिः रवि लामी छाने निगदति दलस्य प्रथमं वर्षम् अनुकूलं ऊर्जशीलं सौहार्दपूर्णञ्च सम्भूतं वर्तते। दलस्य स्थापना दिवसस्य अवसरे ह्य केन्द्रीय कार्यालये आयोजिते पत्रकार सम्मेलने सभापतिः लामी छाने दलस्य एकवर्षस्य यात्रां समीक्षमाणः वर्षमिदम् अत्यन्तम् अनुकूलम् ऊर्जशीलं सौहार्दपूर्णञ्च सम्भूतमिति उदैरयत। सभापतिः लामी छाने अवासत दलं विस्तार्य जनतायाः विश्वासस्य अनुसारेण परिणाममुखिनः सम्पादनम् अतः परं समाह्वयो वर्तते। जनता समाजवादी दलस्य अध्यक्ष उपेन्द्र यादवः कथयति समाजवादी संयुति नेपालेन विगतस्य न्यूनता दुर्बलताः संशोध्य राष्ट्रिय विषयाणां सम्बोधनं करिष्यते। जसपा दलस्य बालकुमारी वर्तिनी कार्यालये ह्य आयोजिते पत्रकार सम्मेलने अध्यक्षो यादवः देशस्य सुशासनेन स्थिरतया विकासेन समृद्ध्या सामाजिक न्यायेन च अग्रग्रामी समाधान प्रदानस्य दिशम्प्रति नयनस्य उद्देश्येन समाजवाद समाज निर्माणं सम्भूतम् अस्तीति समस्पष्टयत। सर्वकारेण आगामिनः आर्थिक वर्षस्य आयव्ययकम् एकपक्षीयरूपेण सत्तारूढ गठबन्धनस्य दलैः सह विमर्शनेन विनैव च आनीतम् इत्यतः आयव्ययक विवरणं संशोध्य अग्रे वर्धनीयमिति अध्यक्षो यादवः अवोचत। सभामुखा देवराज घिमिरे कथयति संसदीय समितिनाम सभापतिनाम चयनाय दलानाम गाम्भीर्या भावात् समस्याः उत्पद्यमानाः सन्ति। सिंहप्रासादस्थे सभामुखस्य कार्यकक्षे ह्य पत्रकारै सह सभामुखा घिमिरे समितिनाम सभापतिनाम चयनाय अनुरुद्धम् सदपि राजनैतिक दलानाम निर्णय प्रदानाभावात् विलम्बो जायमानोस्तीति अतर्कयत। सभामुखेन घिमिरे विधेन गत ज्येष्ठ मासस्य पञ्चदशे दिवसे उपविष्टे प्रतिनिधि सभायाः कार्यव्यवस्था परामर्श समितेः उपवेशे औपचारिक रूपेणैव दलेभ्यः समितिनाम सभापतिनाम चयनाय सप्ताहस्य समयः प्रदत्तः आसीत्। प्रतिनिधि सभया गत वैशाखस्य पञ्चदशे दिवसे दश संसदीय समितयः संगठिताः आसन्। अधिकार दुरूपयोगानुसन्धानायोगेन असीमित सम्पत्तेः अर्जनस्य अभियोगेन नेपाल विद्युत प्राधिकरणस्य तात्कालिकस्य अभियान्त्रिकी स्थपतेः कृष्णप्रसाद यादवस्य विरूद्धे ह्य काष्ठमण्डपस्थिते विशेष न्यायालये न्यायिक प्रकरणं पञ्जीकारितं वर्तते। आयोगेन यादवस्य विरूद्धे एककोटितः द्वाचत्वारिंशतोलक्षेभ्यश्च अधिकरूप्यकाणां हानिवित्तदण्डनं कारावासदण्डनं च अभियाच्य प्रकरणमिदं पञ्जीकारितमस्ति। प्राधिकरणस्य विभिन्नेषु कार्यालयेषु कार्यरतावस्थायां यादवेन अपुष्टस्रोतसः अवैधानिक सम्पत्तिं समर्ज्य भ्रष्टाचरितमिति दृष्टमिति आयोगोऽसौ ज्ञापयति। एवमेव आयोगेन सम्प्रति पोखरा महानगरपालिकायाः अष्टादशवडाक्षेत्रस्य तात्कालिक्याः सराङ्कोट ग्राम विकास समितेः आसन षड् रोपनी परिमितां सार्वजनिक भूमिम् अतिक्रम्य निर्माण मानचित्रं स्वीकृत्य गृह निर्माणस्य अभियोगेन तात्कालिकेन ग्राम विकास समितेः अध्यक्षेण सह शरणां जनानां विरूद्धेऽपि पूर्वेद्युरेव विशेष न्यायालये न्यायिक प्रकरणं पञ्जीकारितं वर्तते। आयोगेन तात्कालिकयोः ग्राम विकास समितेः अध्यक्षयोः मोदनाथ रेग्मी झपटबहादुर थापा विधयोः तात्कालिकस्य क्षेत्र सदस्यस्य यम बहादुर थापा विदस्य तात्कालिकस्य ग्राम विकास समिति सचिवस्य मानबहादुर थापा विदस्य प्रतिवादिनो दिलबहादुर थापा विदस्य तात्कालिकस्य उपभोक्तृ समितेः अध्यक्षस्य भरत बहादुर थापा विदस्य च विरुद्धे समान रूपेण एककोट्याः पञ्चाशतो लक्षाणां च रूप्यकाणां हानिवित्तम् अभियाच्य न्यायिक प्रकरणमिदं पञ्जीकारितमिति आयोगस्य प्रवक्ता भोला दाहालः अज्ञापयत्। पाटनोच्च न्यायालयेन काष्ठमण्डप महानगरपालिकया भारतीय चलचित्राणां प्रदर्शनम् अवरोद्धुं विहितं निर्णयं तत्कालं न क्रियान्वेतुं सर्वकारस्य नाम्नि अल्पकालिकान्तरिमादेश प्रदत्तोऽस्ति। महानगरेण गत सोमवासरात् भारतीय चलचित्राणां प्रदर्शनम् अवरोद्धुं विहितस्य निर्णयस्य विरूद्धे पञ्जीकारितस्य आदेशाभियाच निवेदनस्य श्रवणं विदधानेन न्यायाधीशेन धीरबहादुर चन्दस्य एकल न्यायपीठेन निषेधाज्ञाम् अपाकर्तुं भारतीय चलचित्राणां प्रदर्शनाय बाधां न कर्तुं नकारयितुं च अल्पकालिकान्तरिमादेशः प्रदत्तोऽस्तीति न्यायालयस्य उपरजिष्ट्रार पदीयः प्रवक्ता च मन्दिरासाई अज्ञापयत्। देशे विमर्शनाय पक्षद्वयमेव शैव आषाढस्य द्वादशे दिवसे आहूतम् इति च प्रवक्ता शाही असूचयत। महानगरपालिकया भारतीय चलचित्रे आदिपुरूषे सीता माता भारतीय पुत्री वर्तते इत्याशयस्य संवादः मूल संस्करणे न संशोधितः इत्युक्त्वा गत सोमवासरात् सप्तदशसु चलचित्र भवनेषु भारतीय चलचित्राणां प्रदर्शनम् अवरोधितम् वर्तते। नेपाल ट्रेड युनियन कांग्रेस संगठनस्य केन्द्रीय अध्यक्ष पदे योगेन्द्र कुमार कुंवरः निर्वाचितो वर्तते। नेपाल ट्रेड युनियन कांग्रेस संगठनस्य सप्तम राष्ट्रिय महाधिवेशनेन कुंवर इत्यस्य अध्यक्षतायां पदाधिकारीभिः सह 49 सदस्यीया कार्यसमिति प्रचितास्थिति प्रमुख निर्वाचनाधिकृतः वरिष्ठाधिवक्ता योगेन्द्र बहादुर अधिकारी अज्ञापयत्। अधिवेशनेन युवा समितिः महिला समितिश्च संघटिते स्तः। प्रमुख निर्वाचनाधिकृतस्य अधिकारिणः अनुसारेण बुधवासरस्य रात्रौ सम्पन्ने मतदाने आराष्टम् अशीत्यधिकाष्टशतम् महाधिवेशन प्रतिनिधयः सहभागिनः आसन्।